इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। केन्द्रीय गृहमन्त्रिणा अमितशाहेन डॉक्टर भीमराव अम्बेडकरवर्यस्य अवमानना कृतेति व्याजेन कृतविपक्षीणां कोलाहलेन अद्यापि संसदः सदनद्वयोः कार्यजातम् आदिवसं स्थगितम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अम्बेडकरवर्यस्य अवमाननेति प्रकरणे गृहमन्त्रिणः पक्षं स्वीकुर्वता कांग्रेसदलस्योपरि प्रतिप्रहारो विहितः। राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः चीनदेशेन सह संवादाय बीजिंगनगरे अस्ति, यत्र सः चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यनेन सह महत्वपूर्णेषु द्विपक्षीय विषयेषु चर्चां विधास्यति। भारतस्य पूर्णक्रिकेटक्रीडकः रविचन्द्रन अश्विनः अन्ताराष्ट्रियक्रिकेटक्रीडायाः संन्यासस्य घोषणां कृतवान्। अपि च क्रिकेटक्रीडायां ब्रिस्बेन नगरस्य गावायां बॉर्डर गावस्कर ट्रॉफीति क्रीडायाः तृतीया क्रीडा वर्षायाः कारणेन नाटकीयतया अनिर्णीता जाता। अथ वार्ताः विस्तरेण। केन्द्रीय गृहमन्त्रिणा अमितशाहेन डॉक्टर भीमराव अम्बेडकरवर्यस्य अवमानना कृतेति व्याजेन कृतविपक्षीणां कोलाहलेन अद्यापि संसदः सदनद्वयोः कार्यजातम् आदिवसं स्थगितम्। विपक्षस्य व्यवहारे स्वकीयाम् आपत्तिं प्रकटयन् संसदीय कार्यमन्त्री अर्जुन राम मेघवालः उक्तवान् यत्
बाबा साहब का अपमान करने वाले लोग हैं और हम बाबा साहब का सम्मान करने वाले लोग हैं। जो उस हाउस में, जो राज्यसभा में माननीय गृहमंत्री जी ने जो जवाब दिया था, जो संविधान के 75 साल की यात्रा पर उस हाउस की बात, और अब ये बाबा साहब के चित्र लेकर के आ रहे हैं। ये बाबा साहब का अपमान करने वाली पार्टी आज मजबूर हुई है, क्योंकि नरेंद्र मोदी जी ने बाबा साहब के 5 तीर्थ स्थान बनाए हैं, बाबा साहब का नाम स्वर्ण अक्षरों में लिखा जाने लगा है, लोग बाबा साहब का नाम लेने लगे हैं, तो मजबूरी में ये बाबा साहब का नाम ले रहे हैं।
लोकसभायां यदा सदस्याः द्विवादने प्रथमस्थगनानन्तरं पुनः सम्मिलिताः अभवन् तदा नैके विपक्षी सदस्याः गृहमन्त्रिणः क्षमायाचनां याचन्तः उद्घोषवन्तः अभवन्। तदनन्तरं आदिवसं सभा स्थगिता जातेति पीठासीनाधिकारिणा घोषिता, तथैव हि राज्यसभायामपि अभवत्, येन राज्यसभाध्यक्षेण श्रीजगदीपधनखडेन राज्यसभा पूर्णदिवसाय स्थगिता। प्रधानमन्त्रिणा नरेन्द्रमोदिना अम्बेडकरवर्यस्य अवमाननेति प्रकरणे गृहमन्त्रिणः पक्षं स्वीकुर्वता कांग्रेसदलस्योपरि प्रतिप्रहारो विहितः। तेनोक्तं यत् श्रीशाहः अम्बेडकरवर्यस्य अवमाननां न करोति स्म, अपितु कांग्रेसदलस्य कृष्णैतिह्यं प्रकटयति स्म। सः आरोपितवान् यत् कांग्रेसदलं गृहमन्त्रिणः उक्तिभिः तथ्यैश्च पूर्णतः स्तब्धमस्ति, अस्मादेव कारणात् तद्दलं सम्प्रति नाट्यम् अभिनयतीति। राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः चीनदेशेन सह संवादाय बीजिंगनगरे अस्ति, यत्र सः चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यनेन सह महत्वपूर्णेषु द्विपक्षीय विषयेषु चर्चां विधास्यति। एतेषु विषयेषु प्रामुख्यम् वास्तविक नियंत्रण रेखायां शांति सौहार्दयोः सुस्थापनेन सह द्विपक्षीय संबंधानां पुनर्स्थापनमस्ति। यद्धि पूर्वी लद्दाख क्षेत्रे सैन्य गतिरोधत्वात् गत चतुर्भ्यः वर्षेभ्यः बाधितोस्ति, श्री डोभालः भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् विशेष प्रतिनिधीनां 23तमायां चर्चायां भागग्रहणाय बीजिंग नगरं सम्प्राप्तोस्ति, चर्चैषा पञ्चवर्षानन्तरं समारभते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य निगदितं यत् अण्डमान निकोबार द्वीपस्थानां द्वीपानां नामानि राष्ट्रनायकानां नाम्नि प्रतिस्थापनम् एतत् सुनिश्चयति यत् राष्ट्रं प्रति कृत तेषां सेवाः भाविनागरिकाः सश्रद्धया स्मरेयुः इति सामाजिक प्रसार तन्त्रजाले सन्देशमेकं सम्प्रसारयन् प्रधानमन्त्री उक्तवान् यत् यानि राष्ट्राणि स्वमूलैः सह सम्बद्धानि भवन्ति तानि राष्ट्राणि विकासे सुराष्ट्रनिर्माणे च अग्रे गच्छन्ति। प्रधानमन्त्रिणा उक्तं यत् एतत् राष्ट्रस्य स्वातन्त्र्यवीराणां तेषां पुण्यस्मृतजनानां स्मृतेः संरक्षणस्य सम्मानस्य च राष्ट्रकृत महत्प्रयासस्य भागभूतमस्ति यैः अस्मद्देशस्य उपरि अप्रौञ्छ्यं टंकणं टंकितम्। महाकुम्भमेलापके यात्रिणां कृते निःशुल्क रेलयात्रायाः अनुमतिः भविष्यतीत्यस्मिन् विषये अद्य सर्वकारेण वार्तावाहिन्याः वार्तापत्राणाञ्च अपुष्टाः वार्ताः खण्डिताः। रेलमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् भारतीय रेलविभागः एतेषाम् अपुष्टवार्तानां खण्डनं करोति। प्रसारिताः वार्ताः सर्वथा निराधाराः भ्रामिकाश्च सन्तीति। भारतीय प्रतिभूति विनिमय मण्डलेन सेबी इत्यनेन अनिवार्यं कृतं यत् निवेश परामर्शदाता भवितुम् इच्छुकः कोऽपि जनः निवेश परामर्श विनिमय त्रयोदशोत्तर द्विसहस्रम् इत्यन्तर्गतं योग्यः पञ्जीकृतश्च भवितुमर्हतीति। सेबी इत्यनेन भौमवासरे भारते निवेश परामर्शदातॄणां कृते मानदण्डान् कठिनीकर्तुं प्रस्तावितानि संशोधनानि प्रकाशितानि। संशोधने निवेश परामर्श प्रदाने AI इत्यस्य उपयोगस्य विषयेऽपि उक्तमस्ति। इमानि संशोधनानि ग्राहकदत्तांशस्य सुरक्षा गोपनीयता अखण्डता च प्रदत्त परामर्शस्य स्पष्टता विषये च निवेश परामर्शदातॄणाम् उपरि उत्तरदायित्वं प्रतिस्थापयन्ति। निर्वाचन आयोगेन अद्य आगामिवर्षस्य आरम्भे दिल्ली विधानसभा निर्वाचनस्य सज्जतायाः विषये उपवेशनं कृतम्। आयोगेन दिल्ली मुख्य निर्वाचन पदाधिकारिभिः आरक्षि प्रशासन पदाधिकारिभिः सह संवादो विहितः। सप्तति सदस्यात्मिकायाः दिल्ली विधानसभायाः कार्यकालः आगामिवर्षस्य फरवरी मासस्य त्रयोविंशति दिनांके समाप्तिं याति। निर्वाचनस्य घोषणायाः पूर्वमेव शासनारूढः आपदलं सर्वेषां विधानसभासनानां कृते प्रत्याशिनः नामानि प्रकाशितवत्। कांग्रेसदलेन निर्वाचनाय एकविंशतिः प्रत्याशिनां नामानि घोषितानि। भाजपादलेन अधुनापि स्वकीयानां प्रत्याशिनां नामानि न घोषितानि। भारतस्य ऋतुविज्ञानविभागेन IMD इत्यनेन आगामिषु पञ्च वा सप्त दिवसेषु सम्पूर्णे उत्तर भारते शीततरङ्गस्य स्थितिः स्थास्यतीति पूर्वानुमानं कृतमस्ति। एतादृशीणां ऋतुस्थितीनां प्रसारार्थं नूतनः पश्चिमविक्षोभः निम्नस्तरीयः प्रेरितः चक्रवातीयः सञ्चारश्च कारणमस्ति। आकाशवाण्या सह वार्तालापं कुर्वन्ती IMD इत्यस्य वैज्ञानिका सोमासेन रायः प्रोक्तवती यत् उत्तर पश्चिम मध्य भारतस्य केषुचित् भागेषु न्यूनतमं तापमानं किञ्चित् अपचितुमपि शक्नोति इति।
ईस्टर्ली विंड्स आपका पूरा नॉर्थ इंडिया में आ रही है। ईस्टर्ली विंड्स के कारण टेम्परेचर कल के मुकाबले आज थोड़ा सा बढ़ी है, तो पश्चिमी राजस्थान में 2 से 4 डिग्री का फॉल हुआ है, बाकी पूरा नॉर्थ इंडिया में टेम्परेचर थोड़ा सा बढ़ा है।
अंते क्रीड़ा वार्ता। क्रिकेट क्रीडायां ब्रिस्बेन नगरस्य गाबायां बॉर्डर गावस्कर ट्रॉफीति क्रीडायाः तृतीया क्रीडा वर्षायाः कारणेन नाटकीयतया अनिर्णीता जाता। पञ्चक्रीडा श्रृङ्खलायां सम्प्रति एकैकं द्वन्द्वं विजित्य उभे दले समाने स्तः। अग्रिमा निकषस्पर्धा मेलबोर्न नगरे डिसेम्बर मासस्य 26 दिनांकतः आरप्स्यते। अस्याः अनिर्णितनिकषक्रिकेट क्रीडायाः अनन्तरं भारतस्य पूर्णक्रिकेट क्रीडकः रविचन्द्रन अश्विनः अन्ताराष्ट्रिय क्रिकेट क्रीडायाः संन्यासस्य घोषणां कृतवान् इति वार्ताः।